आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी वन्दे मातरम् इति राष्ट्रगीतस्य 50-अधिकैकशततम वार्षिकोत्सवस्य विशिष्ट चर्चा श्वः लोकसभायाम् आरप्स्यति। गोवा सर्वकारः अर्पोरा नगरे अग्नि दुर्घटनायां यत्र 25 जनाः मृत्युमुपगताः तस्याः दुर्घटनायाः द्रुतं लक्ष्यं च निरीक्षणार्थम् उक्तवान्। निर्वाचनायोगेन प्रोक्तं यत् विशेष गहन पुनरीक्षण इत्यस्य द्वितीय चरणस्य शुभारम्भानन्तरं मतदातृभ्यः 50-कोट्यधिक आवेदनानि वितरितानि जातानि। देहली विमानस्थानकेन यात्रिकाणां कृते विमानस्थानकं प्रति गमनात् पूर्वं स्वस्य विमानस्थितिं द्रष्टुं सूचना प्रख्यापिता। अपि च क्रीडावार्तासु हॉकी क्रीडायां हॉकी पुरुष कनिष्ठ विश्वकप उपान्त्यस्पर्धायां भारतं जर्मनी देशेन सह स्पर्धिष्यते। अथ वार्ताः विशदीकृत्य। वन्दे मातरम् इति राष्ट्रगीतस्य 50-अधिकैकशततम वार्षिकोत्सवस्य विशिष्ट चर्चा श्वः लोकसभायाम् आरभेत। आधिकारिक सूत्राणाम् अनुसारं प्रधानमन्त्री नरेन्द्र मोदी लोकसभायाम् उपवेशनस्य आरम्भो विधास्यति। गतसप्ताहे वार्ताहरान् सम्बोधयन् संसदीय कार्यमन्त्री किरेन रिजिजुः अवोचत् यत् पूर्णदिवसस्य चर्चा मध्याह्ने 12 आरप्स्यते इति। लोकसभाध्यक्षस्य ओम बिरला वर्यस्य अध्यक्षतायां सर्वदलीय सभायां निर्णयो विहितः यत् 8 वन्दे मातरम् इति विषये चर्चा भविष्यति, दिसम्बर मासस्य 9 निर्वाचन परिष्कार विषये च चर्चा भविष्यति। अर्पोरानगरस्य बारदेस तालुका इत्यत्र एकस्यां गोष्ठ्यां महद् अग्निप्रकोपः अभवत् येन 25 जनाः मृत्युमुपगताः, अन्ये च अनेके व्रणिताः अभवन् येन स्थानीय अधिकारिणः तत्क्षणमेव कार्यम् अकुर्वन्। अग्निः प्रकोपस्य कारणं सम्प्रति अपि अज्ञातमस्ति। घटनायाः द्रुतं दक्षं च निरीक्षणार्थं नियन्त्रणकक्षानां स्थापना कृता। उपराष्ट्रपतिः सीपी राधाकृष्णन वर्यः गोवा राज्यस्य अर्पुरानगरे ये जनाः पञ्चत्वे विलीनाः जाताः तेषां परिवारेभ्यः शोकं प्रकटितवान्। एकस्मिन् सामाजिकान्तर्जालीय पटले उपराष्ट्रपतिः अवोचत् यत् अग्निदुर्घटनायां प्राणहान्या सः अतीव दुःखितः अस्ति इति। श्रीराधाकृष्णन वर्यः अवोचत् यत् अस्मिन् महदुःखस्य क्षणे तस्य भावनाः प्रार्थनाः च शोकाकुल परिवारेण सह सन्ति। सः सर्वेभ्यः व्रणितेभ्यः शीघ्रं स्वस्थतां प्राप्तुम् अपि प्रार्थयत्। केन्द्रीय गृहमन्त्री अमितशाहः गोवा राज्ये अग्निदुर्घटनायां मृतकानां जनानां विषये शोकं प्रकटितवान्। सामाजिकान्तर्जालीय पटले सः अवोचत् यत् स्थानीय प्रशासनम् उद्धारकार्यम् उपशमनकार्यं च कुर्वत् अस्ति तथा च प्रभावितानां कृते आवश्यकपरिचर्यां च प्रददाति। असौ मृतकानां परिवारेभ्यः शोकं प्रकटितवान्। सममेव व्रणिताः शीघ्रं स्वस्थाः भवेयुः इति कामनाम् अकरोत्। निर्वाचनायोगेन प्रोक्तं यत् विशेष गहन पुनरीक्षण इत्यस्य द्वितीय चरणस्य शुभारम्भानन्तरं मतदातृभ्यः 50-कोट्यधिक आवेदनानि वितरितानि जातानि। अवधेयास्पदं वर्तते यत् SIR इत्याख्यस्य द्वितीय चरणं गतमासस्य 4 नवसु राज्येषु 3 केन्द्रशासित राज्येषु च समारब्धम् आसीत्। एतानि छत्तीसगढ़, गोवा, गुजरात, केरल, मध्यप्रदेश, राजस्थान, तमिलनाडु, उत्तर प्रदेश, पश्चिम बंगाल, पुदुचेरी, लक्षद्वीप, अंडमान निकोबार द्वीप समूहः च राज्यानि सन्ति। मतदात्री सूच्याः उच्चस्तरीयं पुनरीक्षणम् अग्रिमे वर्षे फरवरी मासस्य 14 दिनाङ्के अन्तिमायाः मतदात्री सूच्याः प्रकाशनेन सह समाप्तं भविष्यति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। देहली विमानस्थानकेन यात्रिकाणां कृते विमानस्थानकं प्रति गमनात् पूर्वं स्वस्य विमानस्थितिं द्रष्टुं सूचना प्रख्यापिता। यतः इंडिगो विमानयानानि इदानीमपि विलम्बं सम्मुखीकर्तुं शक्नुवन्ति इति। अद्य यात्रिकपरामर्शपत्रे दिल्ली विमानस्थानकदलम् अवोचत् यत् तस्य दलानि विलम्बं न्यूनीकर्तुं सुगमयात्रानुभवं सुनिश्चेतुं च मिलित्वा कार्यरताः सन्ति। कर्मचारिणः साहाय्यार्थं सज्जाः सन्ति इति अपि तेन आश्वासितम्। प्रधानमन्त्री नरेन्द्रमोदी अद्य सशस्त्रसेनाध्वजदिवसमाधृत्य उक्तवान् यत् देशः साहसेन सह देशस्य रक्षणं कुर्वतां वीरसैनिकानां कृते कृतज्ञतां प्रकटयति। एकस्मिन् अन्तर्जालीय सामाजिक माध्यमेन श्रीमोदी अवोचत् यत् सैनिकानाम् अनुशासनं, दृढनिश्चयः, अदम्यसाहसः च राष्ट्रं सुदृढं करोति। अस्मिन् अवसरे श्रीमोदिना सर्वेभ्यः नागरिकेभ्यः सशस्त्रसेनाध्वजदिवसकोषे योगदानाय अपि प्रेरणा प्रदत्ता। सशस्त्रसेनाध्वजदिवसस्य अवसरे उपराष्ट्रपतिः सीपी राधाकृष्णन् वर्यः अद्य सशस्त्रसेनाध्वजदिवसनिधिं प्रति स्वस्य एकमासस्य पूर्णं वेतनम् अयच्छत्। एकस्मिन् जनसञ्चारपटले उपराष्ट्रपतिः सर्वान् नागरिकान् अपि प्रार्थयत् यत् सशस्त्रसेनाध्वजदिवसनिधौ स्वेच्छया योगदानं कृत्वा राष्ट्रस्य सैनिकान् प्रति सामूहिकरूपेण कृतज्ञतां प्रकटयन्तु इति। उपराष्ट्रपतिः सीपी राधाकृष्णन् अद्य हरियाणायाः गुरुग्रामे ब्रह्मकुमार्याः इत्यस्याः संस्थायाः ओम शान्ति रिट्रीट सेंटर इत्याख्यायाः रजत जयन्त्योत्सवस्य शुभारम्भं कृतवान्। अस्मिन् अवसरे श्रीराधाकृष्णन् अवोचत् यत् ब्रह्मकुमार्या इत्यनया संस्थया मस्तिष्के ब्रह्माण्डे आत्मनि चेत्यादिषु विषयेषु ध्यानस्य शक्तिद्वारा गहन सत्यं प्रकाशितम्। सः अवोचत् यत् ब्रह्मकुमारी इत्यस्याः संस्थायाः सतत प्रयासैः भारते विश्वे च असंख्य साधकानां कृते शान्तिः, सात्विकता, आध्यात्मिक जागरणं च अभवत्।
The Brahma Kumaris have played a commendable role in continuing this great tradition. You have brought peace, purity and spiritual awakening to the searching souls and the minds of millions of people in Bharat and abroad. I appreciate the tireless service of the Brahma Kumaris.
सीमा सुरक्षा बलेन विगतेषु चतुर्विंशति होरासु अमृतसर, तरनतारन, फिरोजपुर क्षेत्रेषु विभिन्नाभियानेषु पंजाब सीम्नी, हेरोइन इति मादक द्रव्यं, भुशुण्डिका, गोलिकाश्च स्वायत्ती कृताः। सहैव त्रीणि ड्रोन विमानानि च निपातितानि। गतरात्रौ ड्रोन यन्त्रस्य संचारं श्रुत्वा सुरक्षाकर्मिभिः एकं अन्वेषणाभियानं समारब्धम्। अस्य परिणामस्वरूपं सीमांत केदारे 6.50 किलोग्राम मितादपि अधिकानि भारस्य युतानि 12 हेरोइन पुटकानि निग्रहितानि। इतः पूर्वं सीम्नी नियुक्तानां प्राविधिक प्रतिकारोपायानां प्रायेण सीमा सुरक्षाबलेन पाकिस्तानात् पंजाब सीम्नी मादक पदार्थानां प्रेषणं कुर्वतां त्रयाणां ड्रोन विमानानां निपातनं कृतम्। हॉकी क्रीडायाम् अद्य सायंकाले चेन्नई नगरस्य मेयर राधाकृष्णन हॉकी क्रीडांगणे FIH 25th-2000 हॉकी पुरुष कनिष्ठ विश्व कप इत्यस्य उपांत्य स्पर्धायां भारतं जर्मनी देशेन सह स्पर्धिष्यते। भारतीय समयानुगुणं सायं 8 वादने क्रीडा इयं आरभ्यते इति वार्ताः।